इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् क्षयरोग टीबी इति सञ्जातः अपचयः भारतस्य अभिनव प्रयासानां परिणामः अस्ति। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता एवं गृहमन्त्री अमित शाह अद्य राज्यां झारखण्ड विधानसभा निर्वाचनाय दलीयमेकं घोषणापत्रं संकल्पपत्रं प्रसारितवान्। विदेशमन्त्री डॉ जयशंकर अद्यारभ्य ऑस्ट्रेलिया सिंगापुरयोः षड्दिवसीय यात्रायाम् अस्ति। भारतीय ऋतु विज्ञान विभागेन अद्य तमिलनाडु पुद्दुचेरी केरल चेत्यादिषु राज्येषु मेघगर्जनेन सह प्रचण्ड वृष्टेः संभावना प्रकटिता। अद्य भ्रातृद्वितीयोत्सवः हर्षोल्लासेन उत्साहेन च आचर्यते। अपि च भारत न्यूजीलैंड देशयोः मध्ये प्रचाल्यमाने तृतीयाम् स्पर्धानां श्रृंखलायाः क्रिकेट निकष स्पर्धायां न्यूजीलैंड दलेन 3-0 इत्यन्तरालेन विजयं प्राप्तम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् क्षयरोग टीबी इति सञ्जातः अपचयः भारतस्य अभिनव प्रयासानां परिणामः अस्ति। तेन उक्तं यत् सामूहिक भावनायाः माध्यमेन टीबी रोगमुक्तं भारतम् अस्यां दिशि प्रयासं करोति। क्षयरोग संक्रमणं विरुध्य भारतस्य युद्धविषये विश्वस्वास्थ्य संघटनेन प्रकाशितस्य प्रतिवेदनस्य विषये टिप्पणीं कुर्वन् उक्तवान् यत् केन्द्र सर्वकारः भारतं क्षयरोगमुक्तं कर्तुं स्वस्य प्रतिबद्धतायां दृढम् अस्ति। मोदी अन्तर्जालीय पटल सन्देश माध्यमेन अवदत् यत् प्रशंसनीया प्रगतिः क्षयरोगस्य प्रकरणानाम् अवनतिः भारतस्य समर्पितानां नवीन प्रयत्नानां परिणामः अस्ति। सामूहिक भावनायाः माध्यमेन वयं क्षयरोगमुक्त भारतस्य दिशि कार्यं करिष्यामः इति। भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता एवं गृहमन्त्री अमित शाह अद्य राज्यां झारखण्ड विधानसभा निर्वाचनाय दलीयमेकं घोषणापत्रं संकल्पपत्रं प्रसारितवान्। राज्ये समान नागरिक संहितायाः कार्यान्वयनं तस्मात् जनजातिः अस्मात् बहिः स्थापयितुं च प्रतिज्ञां कृतवान्। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता तथा गृहमन्त्री अमित शाह अद्य झारखण्डस्य रांचीनगरे विधानसभा निर्वाचनार्थं दलस्य घोषणापत्र संकल्पपत्रं प्रसारितवान्। अस्मिन् अवसरे स्वस्य सम्बोधने सः अवदत् यत् राज्ये यदि भारतीय जनता पार्टीति दलस्य सर्वकारस्य निर्माणं भवति तर्हि तत्र समान नागरिक संहितायाः क्रियान्वयनं भविष्यति, परन्तु जनजातयः आसाम अधीनः न आगमिष्यन्ति।
झारखंड में यूसीसी जरूर आएगा, हमारी सरकार झारखंड में यूसीसी लाएगी, मगर यूसीसी से आदिवासियों को पूर्णतया हम बाहर रखेंगे। कोई आदिवासी के अधिकार और कानून को यूसीसी से हम नहीं छेड़ेंगे। मातृत्व सुरक्षा योजना, 6 पोषण किट और 21,000 की सहायता हम प्रदान करेंगे।
श्री शाहेन प्रोक्तं यत् संथाल परगना क्षेत्रात् बांग्लादेशीयानां अन्तर्निवेशं स्थगितुं नियमः निर्मास्यन्ते, यतो हि राज्यस्य जनसांख्यिक्यां परिवर्तनं जातम्। अन्तः निविष्टाः जनजातीय स्त्रीभिः सह विवाहं कृत्वा जनजातीयानां भूमिम् अधिगृहीतवन्तः। अस्मिन् विषये विधि निर्माणस्य अनन्तरम् आदिवासीनां भूमिः तान् प्रत्यावर्तिष्यते। श्री अमित शाह अवदत् यत् राज्ये प्रत्येकं महिलायै गोगो दीदी योजनायाः अन्तर्गतं प्रतिमासं राज्यस्य 21,000 रूप्यकाणि प्रदास्यन्ते। विदेशमन्त्री डॉ जयशंकरः अद्यारभ्य ऑस्ट्रेलिया सिंगापुरयोः 6-दिवसीय यात्रायाम् अस्ति। अस्मिन् काले विदेशमन्त्री ब्रिस्बेन नगरं गत्वा ऑस्ट्रेलिया देशे भारतस्य 4th वाणिज्य दूतावासस्य उद्घाटनं करिष्यति। सः केन्बरा नगरे ऑस्ट्रेलिया देशस्य विदेशमन्त्री पेनी वोंग इत्यनेन सह विदेशमन्त्री स्तरीय संवादस्य 15th समागमस्य सहाध्यक्षत्वेन उपस्थास्यति। विदेशमन्त्री ऑस्ट्रेलिया देशस्य संसद भवने द्वितीयस्य रायसीना डाउन अंडर इत्यस्य उद्घाटन सत्रे अपि संबोधनं करिष्यति। निज यात्रायाः द्वितीय चरणे डॉ जयशंकरः नवंबर मासस्य 8 दिनांके सिंगापुरं प्रयास्यति। अस्मिन् काले सः आसियान भारत चिन्तन संघस्य सम्मेलने अपि भागग्रहणं करिष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। रेल मन्त्रालयेन अद्यारभ्य महोत्सव समये यात्रिकाणां सौविध्याय विशेष व्यवस्था रूपेण दिल्लीतः देशस्य विभिन्नेषु भागेषु प्रायः विंशतिः विशेष रेलयानानि चालयन्ति। तेषु दरभंगा, बरौनी, पटना, कटरा, मुजफ्फरपुर, बलिया, कामाख्या, आजमगढ़ चेत्येषां क्षेत्राणां कृते विशेष रेलयानानि सन्ति। विशेषतः छठ पूजायाः कृते अस्य मासस्य द्वे दिनांकतः अष्ट दिनांक पर्यन्तं 45% अतिरिक्त रेलयानानि प्रचलन्ति। एवं प्रकारेण प्रतिदिनं प्रायः 2,00,000 अतिरिक्त यात्रिकाणां कृते रेलयात्रा सुलभा क्रियते। रेलमार्गेण अक्टोबर मासस्य प्रथम दिनात् नवम्बर मासस्य 30 दिनांक पर्यन्तं उत्सवेषु प्रायः 7,000 विशेष रेलयानानि व्यवस्थापितानि सन्ति। आकाशवाण्याः वार्ताहरेण सह वार्तालापं कुर्वन् रेल मन्त्रालयस्य कार्यकारी निदेशकः प्रचार निदेशकः च दिलीप कुमारः अवदत् यत् अद्यत्वे अपि अनेकानि विशेष रेलयानानि प्रचलन्ति।
आज रविवार के दिन कुल 186 विशेष गाड़ियां चलाई जा रही है। जो विशेष गाड़ियां हमारी चल रही है वो नई दिल्ली, दिल्ली, आनंद विहार, अमृतसर, अहमदाबाद और दक्षिण के शहरों में कोयम्बतूर तथा बेंगलुरु और तिरुपति जैसे स्टेशनों से चलाई जा रही है। और हर बड़े स्टेशन पर हम लोगों ने यात्रियों की सुविधा के लिए पैसेंजर एमिनिटीज से संबंधित सुविधाएं उपलब्ध कराई हैं।
भारतीय ऋतु विज्ञान विभागेन अद्य तमिलनाडु, पुद्दुचेरी, केरल चेत्यादिषु राज्येषु मेघगर्जनेन सह प्रचण्ड वृष्टेः सम्भावना प्रकटिता। आगामिषु चतुर्दिनेषु उत्तरपश्चिमयोः पूर्वभारतयोः न्यूनतमम् अधिकतमं च तापमानं 2-3 डिग्री सेल्सियस् पर्यन्तं न्यूनी भवितुं शक्यते। अस्य मासस्य पञ्चमे दिनाङ्के अण्डमान निकोबार द्वीपे प्रचण्ड वृष्टेः सम्भावना वर्तते। अद्य भ्रातृद्वितीयोत्सव हर्षोल्लासेन आमान्यते। अस्मिन् दिने भगिन्यः भ्रातृणां ललाटे तिलकं प्रयोजयन्ति, तेषां दीर्घायुषा प्रार्थनां च कुर्वन्ति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी देशवासिनां कृते शुभकामनाः प्रदत्तवान्। अन्तर्जालीय पटल सन्देशमाध्यमेन असौ प्रोक्तवान् यत् एषः शुभ उत्सव भ्रातृणां भगिनीनां च स्नेहं सुदृढं करिष्यति। गृहमन्त्री अमितशाह एकस्मिन् अन्तर्जालीयपटल सन्देशमाध्यमेन कामनाम् अकरोत् यत् प्रेम्णः समर्पणस्य च एषः उत्सवः सर्वेषां जीवने सुखं जनयेत्। केन्द्रीय सूचना प्रसारण रेल तथा प्रविधि मन्त्री अश्विनी वैष्णवः एकदिवसीयस्यां केरलयात्रायाम् अद्य प्रातः कोच्चि क्षेत्रं सम्प्राप्तवान्। सः रेलसम्बद्धं निर्माणम् अमृत भारत एक्सप्रेस रेलयानं स्टेशन इति रेलस्थात्र विकास परियोजनां निरीक्षितुं विशेषेण रेलयानेन अलुवातः कोझिकोडं यावत् यात्रां विहितवान्। वैष्णव अद्य कोझिकोडस्य दैनिकपत्रस्य जन्मभूमेः स्वर्णजयन्ती समारोहे आयोजितस्य ज्ञानोत्सवस्य शुभारम्भं करोति। बांग्लादेशे इंटरनेशनल सोसाइटी फॉर कृष्णा कॉन्सियसनेस इस्कॉन इति संस्था अमरदेशस्य संपादकं महमूदुर रहमानं संघटनस्य विषये प्रतिक्रियायाः कृते आगामिषु 7 दिवसेषु क्षमा याचनायै उक्तवती। भारत न्यूजीलैंड देशयो मध्ये प्रचाल्यमाणे तिष्णां स्पर्धानां श्रृंखलायाः क्रिकेट निकष स्पर्धायां न्यूजीलैंड दलेन 3-0 इत्यन्तरालेन विजयं प्राप्तम्। अद्य मुंबई नगरे क्रीडिते तृतीये अंतिमे च क्रिकेट क्रीडायां न्यूजीलैंड दलेन भारत दलं 25 धावनांकैः पराजितम्। विजयाय 47 धावनांकानां प्रत्युत्तरे भारत दलेन केवलं 21 धावनांकाः विनिर्मिताः। न्यूजीलैंड दलस्य एजाज पटेलेन 4 स्तोभा गृहीताः। अस्मिन्नेव पूर्वे न्यूजीलैंड देशेन भारतदलं प्रथमे द्वन्द्वे 8 स्तोभैः, द्वितीये द्वन्द्वे च 13 धावनांकैः पराजितम् आसीत्। मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् क्षयरोग टीबी इति संजात अपचय भारतस्य अभिनव प्रयासानां परिणामः अस्ति। भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेतायं गृहमन्त्री अमित शाह अद्य राज्यां झारखण्ड विधानसभा निर्वाचनाय दलीयमेकं घोषणापत्रं संकल्पपत्रं प्रसारितवान्। विदेश मंत्री डॉक्टर जयशंकर अद्यारभ्य ऑस्ट्रेलिया सिंगापुर षड दिवसीय यात्रायाम् अस्ति। भारतीय ऋतु विज्ञान विभागेन अद्य तमिलनाडु, पुद्दुचेरी, केरल चेत्यादिषु राज्येषु